तेभ्यः अद्य लघु सिद्धान्तकौमुद्याः समासप्रकरणे प्रथमः पाठः परिचयात्मकः वर्गः. अतः समासः नाम कः, समासप्रभेदाः के के भवन्ति इति वयमद्य ज्ञातुं प्रयत्नं कुर्मः. आदौ मङ्गलं कुर्मः. येनाक्षरतमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. अयं लघुसिद्धान्तकौमुद्याः मङ्गलश्लोकः. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. सरस्वतीदेवीं नत्वा प्रणम्य, कीदृशी सरस्वती, शुद्धा गुण्य सद्गुणयुक्ता, तादृशीं प्रणम्य अहं करोमि. अहम् इत्यनेन ग्रन्थस्य कर्ता वरदराजः उच्यते. लघुसिद्धान्तकौमुद्याः कर्ता वरदराजः भट्टोजीदीक्षितस्य शिष्यः. भट्टोजीदीक्षितः सिद्धान्तकौमुद्याः कर्ता, तच्छिष्येण वरदराजेन लघुसिद्धान्तकौमुदी इत्येषः ग्रन्थः प्रणीतः. ग्रन्थस्य प्रयोजनं पाणिनीयप्रवेशः. पाणिनीयशास्त्रे प्रवेशार्थं, प्रारम्भिक अध्ययनार्थम् अयं ग्रन्थः प्रणीतः. अत्र सिद्धान्तकौमुद्याः लघुसिद्धान्तकौमुद्याः भेदः ज्ञातव्यः. सिद्धान्तकौमुद्याम् अष्टाध्याय्याः सर्वाणि सूत्राणि व्याख्यातानि सन्ति. क्रमः भिन्नः, किन्तु सर्वाणि सूत्राणि सन्ति. लघुसिद्धान्तकौमुद्यां तु सर्वाणि सूत्राणि न सन्ति. कानिचन एव सूत्राणि सन्ति, प्रारम्भिकस्तरे यावन्ति आवश्यकानि तावन्ति. तत्र विशिष्य समासप्रकरणे सिद्धान्तकौमुद्याः समासप्रकरणम् अत्यन्तं दीर्घमस्ति. अस्मिन् काले, कालः अस्माकं समयः तु पर्याप्तः अस्ति, अतः पूर्णस्याः सिद्धान्तकौमुद्याः अध्ययनं न शक्यते. अतः वयं लघुसिद्धान्तकौमुद्याः समासप्रकरणस्य अध्ययनं कुर्मः. लघुसिद्धान्तकौमुद्याः अध्ययनेनापि समासप्रकरणे उत्तमा गतिः प्राप्तुं शक्यते. सामान्यतः बेसिक् यद्यदपेक्षितं तत्सर्वम् अत्र अस्त्येव इति पीठिका. संस्कृतेनैव कर्तुं शक्नुमः किल पूर्णं? तस्य क्लेशः भवति वा? शुभा भगिनी, सुधा भगिनी, चिन्ता नास्ति किल? संस्कृतेन कुर्मः, मध्ये कुत्रापि अवगमनं नास्ति चेत् वदन्तु, पश्यामः. सरलं संस्कृतमेव उपयुज्यते, अतः चिन्ता मास्तु. अत्र लघुसिद्धान्तकौमुद्याः अध्ययनार्थं किं पाठ्यपुस्तकम् उपयोक्तव्यम् इत्यत्र वस्तुतः गीता प्रेस् गोरख्पुर् द्वारा लघुसिद्धान्तकौमुद्याः एकम् एडिशन् लभ्यते, बहु सम्यगस्ति. तत्र टिप्पण्यः अपि सन्ति, केवलं 45 रूप्यकैः लभ्यते. अतः यदि लभ्यते तदेव क्रीणन्तु. सः ग्रन्थः बहु समीचीनः अस्ति. तत्र गीता प्रेस् बुक् शाप् एतत् लिङ्क् अस्ति, तत्र आन्लैन् अपि क्रेतुं शक्यते, अथवा साक्षात् पुस्तकापणादपि क्रेतुं शक्यते. यदि न लभ्यते अथवा अन्यत्र क्लेशः अस्ति archive.org तः डाउनलोड अपि कर्तुं शक्यते, किन्तु पुस्तकं हस्ते अस्ति चेत् वरम्। आंग्ल अनुवादः अपेक्ष्यते चेत् तत्र लघुकौमुदी इति इत्यत्र आंग्ल अनुवादेन सह PDF डाउनलोड कर्तुं शक्यते यदि अपेक्षितं कर्तुम् अर्हन्ति। विकिसोर्स् संस्कृत विकिसोर्स् मध्ये लघुसिद्धान्तकौमुद्याः मूलं पूर्णतः लभ्यते, अतः यदि केवलं लघुसिद्धान्तकौमुद्याः मूलग्रन्थः अपेक्षते ततः अपि स्वीकर्तुं शक्यते। अहम् एतत् PDF शेर् करोमि, लिङ्क्स् अत्रैव भवन्ति, यदि इच्छन्ति ततः स्वीकुर्वन्तु। अस्मिन् पाठे वयं समासः नाम कः, समासस्य कति प्रभेदाः सन्ति, समासे प्राधान्यम् इत्युक्ते किम्, प्राधान्यनिर्णयः कथं भवति, सामर्थ्यं नाम किम्, समासाधिकारः कः कीदृशः अष्टाध्याय्यां समासाधिकारस्य किं स्वरूपम् इत्येतान् अंशान् ज्ञातुं प्रयत्नं कुर्मः। आदौ एतद् ज्ञातव्यम्, लघुसिद्धान्तकौमुद्यां समासात् पूर्वं कानि कानि प्रकरणानि सन्ति इति पश्यामः चेत्, आदौ पञ्चसन्ध्यन्तः भागः अस्ति, ततः शब्दाधिकारः, अजन्तशब्दाः हलन्तशब्दाः शब्दानां विभक्तिरूपनिष्पत्तिः कथम् इति, दशगणि यत्र तिङन्तानां निष्पादनं क्रियते, सनाद्यन्ताः सन्नन्ताः णिजन्ताः क्यजन्ताः इत्यादीनाम् अध्ययनम्, कृदन्ताः धातुभ्यः कृदन्तपदानां निष्पत्तिः कथम्, विभक्त्यर्थः, विभक्त्यर्थः एव कारकं, कारकाणि कानि, विभक्तीनां के अर्थाः इत्येतत् सर्वमपि अधीतमस्ति इति मनसि निधाय समासप्रकरणम् अध्येतव्यम्। यतोहि कौमुद्याः क्रमे सः क्लेशः, मध्ये वयम् इदानीं समासप्रकरणं स्वीकुर्मः, सर्वाणि सूत्राणि अत्र न भवन्ति, पूर्वमपि बहूनि सूत्राणि व्याख्यातानि, तानि केवलम् उच्यन्ते, तेषाम् अध्ययनं पृथक् अत्र न क्रियते। वयं तु अस्मिन् वर्गे यथाशक्ति वक्ष्यामि, यदि पूर्वं सूत्राणि सन्ति तेषां विषये वक्ष्यामि, किन्तु एतत् सर्वमपि भवद्भिः अधीतम् इति विचिन्त्य इदानीं समासं पठामः। समासानन्तरं केवलं तद्धिताः स्त्रीप्रत्ययाः इत्येव अस्ति, अतः लघुकौमुद्यां प्रायः अन्ते एव समासप्रकरणं निक्षिप्तमस्ति। तत्र प्रश्नाः सन्ति वा? तत्र प्रथमः पञ्चसन्ध्यन्तं नाम तत्र सन्धीनां संज्ञाप्रकरणं परिभाषाः सन्धयः, अच्सन्धिः हल्सन्धिः विसर्गसन्धिः इत्येतावदस्ति। एतावती भगिनि, प्रश्नः अस्ति वा? अन्म्यूट् करणीयम्, क्लिक् आन् द मैक्रोफोन्
मेडम्। कोऽपि प्रश्नः?
अस्तु, तर्हि अग्रे तत्र समासे किं किम् अस्ति, समासप्रकरणम् इति एकं प्रकरणं न, समासप्रकरणे केवलसमासः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः, समासान्तः इत्येवं षट् प्रकरणानि समासे अन्तर्भवन्ति लघुसिद्धान्तकौमुद्यां। कौमुद्याः प्रकरणविभागः भिन्नः, लघुसिद्धान्तकौमुद्याः भिन्नः, अतः कौमुद्याम् एतदेव अस्ति इति न चिन्तयन्तु। समासे लघुसिद्धान्तकौमुद्यां एतावन्ति प्रकरणानि सन्ति। तर्हि तत्र प्रथमं प्रकरणमस्ति केवलसमासः इति। समासः नाम कः इति आदौ सः कथयति, तत्र आदौ केवल समासः समासः पञ्चधा अत्र अस्मिन् स्लाइड्स मध्ये एवं हरित वर्णे यद् अंकितमस्ति तत् मूलम् इति अवगन्तव्यं सिद्धान्तकौमुद्याः पंक्तिः उपरि अस्ति चेत् सूत्ररूपेण भवति नो चेत् कौमुद्याः पंक्तिः हरितवर्णेन भवति अन्यत् कृष्णवर्णे यदस्ति तत्सर्वं मया लिखितम् अतः मूलं किं तस्य व्याख्यानं किम् इति ज्ञातव्यं तत्रादौ केवलसमासः इत्येव आरभ्यते समासप्रकरणे आदौ केवलसमासात् समासानाम् अध्ययनम् आरभ्यते समासः पञ्चधा पञ्चविधाः समासाः सन्ति अस्तु समासः नाम कः इति चेत् तत्र समसनम् समासः समसनम् समासः समासः इति घयन्तः शब्दः समसनम् इति ल्युडन्तः शब्दः तत्र भेदः नास्ति समसनम् नाम किम् अनेकस्य पदस्य एकपदीभवनम् समसनम् स एव समासः पदम् नाम किम् व्याकरणपरिभाषायाम् सुप् तिङन्तम् पदम् सुबन्तम् तिङन्तम् वा पदम् इत्युच्यते तत्र बहूनाम् पदानाम् मेलनेन एकम् पदम् यत्र निर्मीयते सः समासः इति कथ्यते यथा सीतायाः इति एकम् पदम् सुबन्तम् किल सीता इति प्रातिपदिकम् षष्ठी विभक्तौ एकवचने सीतायाः इति भवति पतिः इत्यपि अपरम् पदम् पति इति प्रातिपदिकस्य प्रथमा विभक्तौ एकवचनम् पदद्वयम् अस्ति यदा वयम् योजयित्वा सीतापतिः इति एकम् पदम् कुर्मः अयम् समासः इति कथ्यते पूर्वम् पदद्वयम् आसीत् इदानीम् तु एकमेव पदम् अस्ति एकम् सुबन्तम् सीतापति इति प्रातिपदिकम् तस्य प्रथमाविभक्तौ एकवचने सीतापतिः इति रूपम् अनेकस्य पदस्य न एकम् अनेकम् अतः द्वे पदे भवतः अथवा बहूनि पदानि भवन्ति अन्ते तु एकमेव पदम् भवति तस्य समासः इति नाम दीयते इदानीम् समासः पञ्चधा इत्युक्तम् के पञ्च प्रभेदाः इति पश्यामः चेत् वस्तुतः चत्वारः प्रभेदाः प्रसिद्धाः अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः एते चत्वारः समासस्य प्रमुखाः प्रभेदाः अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः इति कदाचित् प्राथमिकस्तरे षड्विधाः समासाः इति पठामः एतैः चतुर्भिः सह कर्मधारयः द्विगुः इत्यपि समासप्रभेदेषु कदाचित् पाठ्यते किन्तु वस्तुतः द्विगुसमासः कर्मधारयसमासश्च तत्पुरुषसमासे एव अन्तर्भवति अतः प्राधान्येन चत्वारः एव समासाः अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः इति किन्तु एतेभ्यः पूर्वं केवलसमासः यः अव्ययीभावः अपि न तत्पुरुषोऽपि न बहुव्रीहिरपि न द्वन्द्वोऽपि न सः केवलसमासः यत्र विशिष्य अयमेव समासः इति नाम न दीयते तादृशः समासः केवलसमासः इति कथ्यते एवं समासः चतुर्विधः एतेषु चतुर्षु प्रभेदेषु अनन्तर्भूताः समासाः केवलसमासाः इति कथ्यन्ते तदेव उच्यते पूर्वं किमुक्तं लघुकौमुद्यां मूलपङ्क्तिं पश्यामः चेत् तत्रादौ केवलसमासः समासः पञ्चधा तत्र समसनम् समासः समासः पञ्चधा इत्युक्तम् के पञ्चसमासाः इति अधुना कथ्यते स च विशेषसंज्ञाविनिर्मुक्तः केवलसमासः प्रथमः विशेष संज्ञा काः अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः इति विशिष्य समासस्य संज्ञाः दीयन्ते तद्विनिर्मुक्तः तैः रहितः यत्र कापि विशेषसंज्ञा न भवति केवलं समासः इत्येव कः समासः इति चेत् समासः तावदेव अत एव तस्य केवलसमासः इति नाम तर्हि अन्ये प्रभेदाः के इति चेत् प्रायेण पूर्वपदार्थप्रधानः अव्ययीभावः द्वितीयः प्रभेदः अस्ति अव्ययीभावः अव्ययीभावसमासः कीदृशः प्रायेण पूर्वपदार्थप्रधानः अस्य कः अर्थः इति अग्रे जानीमः पूर्वपदार्थप्रधानः नाम कः इति तत्र अव्ययीभावः पूर्वपदार्थप्रधानः प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषः तृतीयः प्रभेदः समासस्य तत्पुरुषः कीदृशः भवति प्रायेण उत्तरपदार्थप्रधानः भवति तत्पुरुषभेदः कर्मधारयः कर्मधारयसमासः तत्पुरुषस्यैव भेदः अर्थात् सः अपि उत्तरपदार्थप्रधानः प्रायेण कर्मधारयभेदः द्विगुः कर्मधारये विशिष्य एकः प्रभेदः भवति द्विगुसमासः एतौ द्वौ पृथक् समासौ न इति स्पष्टीकर्तुं विशिष्य उच्यते प्रायेण अन्यपदार्थप्रधानः बहुव्रीहिः चतुर्थः समासः भवति बहुव्रीहिः यः अन्यपदार्थप्रधानः प्रायेण उभयपदार्थप्रधानः द्वन्द्वः पञ्चमः द्वन्द्वसमासः पञ्चमः प्रभेदः यत्र उभयपदार्थप्राधान्यं भवति इत्येवं पञ्चसमासप्रभेदान् कथयति तत्र प्राधान्यं नाम किम् इति प्रश्नः यथा राजदूतः इति एकं पदमस्ति तत्र पदद्वयम् अयं समासः एकमेव पदम् अतः राजदूतः इति एकं पदम् किन्तु तत्र पदद्वयम् अस्ति पूर्वपदम् उत्तरपदम् इति वदामः अत्र राज इति पूर्वपदम् दूतः इति उत्तरपदम् समासप्रभेदान् पश्यामः चेत् पूर्वपदार्थप्रधानः उत्तरपदार्थप्रधानः इत्यादि उच्यते प्राधान्यं नाम किम् राजा इति पूर्वपदम् तस्य अर्थः कः राजा नृपतिः अर्थः दूतः सेवकः इति उत्तरपदस्य अर्थः तर्हि कः प्रधानः राजा प्रधानः वा सेवकः दूतः प्रधानः वा इति चेत् लोके वयं किं वदामः राजा प्रधानः स एव स्वामी इति वदामः किन्तु व्याकरणे समासे प्राधान्यं तादृशं न लौकिकप्राधान्यम् अत्र न स्वीक्रियते तर्हि कथं प्राधान्यनिर्णयः इत्यत्र कश्चित् गुणः अथवा काचित् क्रिया स्वीकर्तव्या यथा राजदूतः गच्छति इति चिन्तयामः गच्छति गमनक्रिया अथवा राजदूतः सुन्दरः तत्र सुन्दरः इति गुणः सौन्दर्यं गुणः गुणवाचकस्य क्रियावाचकस्य च वयं योजनं कुर्मः समस्तपदेन सह इदानीं राजदूतः गच्छति इति यदा वदामः तत्र कः गच्छति राजा गच्छति वा दूतः गच्छति वा कः गच्छति उत्तरं वक्तुं शक्यते भवद्भिरेव You should all be able to unmute yourself and talk.
दूतः
एव किल गच्छति न तु राजा अतः अत्र राजा इत्यस्य प्राधान्यं न दूतस्य एव प्राधान्यम् एवमेव कः सुन्दरः राजदूतः सुन्दरः इत्युक्ते कः सुन्दरः राजा सुन्दरः वा दूतः सुन्दरः वा दूतः एव सुन्दरः राजा सुन्दरः वा न वा न ज्ञायते अत्र तु नास्ति यत्र तु राजदूतः सुन्दरः इति कथ्यते तत्र दूतस्यैव सौन्दर्यं विवक्ष्यते दूतस्यैव गमनं विवक्ष्यते एवं क्रियायाः गुणस्य च अन्वयं यदा कुर्मः तदा समासे यः पदार्थः क्रियया गुणेन वा अन्वेति अन्वयं प्राप्नोति सः प्रधानः इति कथ्यते तो समासे पदद्वयं भवति सामान्यतः तत्र कस्य पदार्थस्य गुणेन अथवा क्रियया अन्वयः भवति सः प्रधानः इति कथ्यते एतत् प्राधान्यम् तर्हि भिन्नेषु समासेषु कथं भवति इति पश्यामः तत्र समासप्रभेदान् दृष्टवन्तः उदाहरणम् एकैकं दृष्ट्वा कस्य प्राधान्यं भवति इति पश्यामः केवलसमासः प्रथमः पूर्वं भूतः इति एकम् उदाहरणम् भूतपूर्वः भूतपूर्वः फार्मर् इत्यर्थः यथा भूतपूर्वः छात्रः इदानीं छात्रः न सः पूर्वं भूतः इत्यर्थः सः केवलसमासः अस्य विषये अग्रे पश्यामः प्रायेण पूर्वपदार्थप्रधानः अव्ययीभावः द्वितीयः इत्युक्तम् उदाहरणं पश्यामः गङ्गायाः समीपम् इत्यस्ति उपगङ्गम् इति अव्ययीभावसमासस्य उदाहरणम् उपगङ्गम् वसति कश्चित् सः उपगङ्गम् वसति इत्युक्ते गङ्गायाः समीपे एव वासस्य अन्वयः न तु गङ्गायाम् सः साक्षात् गङ्गायां न वसति गङ्गायाः समीपे वसति अत्र समीपरूपः अर्थः पूर्वपदस्य अर्थः उप इति पूर्वपदस्य अर्थः सामीप्यम् तस्य क्रियया अन्वयः भवति अतः पूर्वपदार्थप्रधानः अव्ययीभावः उत्तरपदार्थप्रधानः तत्पुरुषः उदाहरणं दृष्टं राजदूतः राजपुत्रः इत्यादि तत्पुरुषसमासस्य उदाहरणानि अत्र राजपुत्रः गच्छति इत्युक्ते पुत्रः एव गच्छति न तु राजा अतः उत्तरपदार्थस्य प्राधान्यम् एवमेव नीलः मेघः नीलमेघः वर्षति इत्यस्ति अत्र नील इति विशेषणम् मेघ इति विशेष्यम् कः वर्षति मेघः वर्षति कीदृशः सः नीलः वस्तुतः अत्र नीलशब्दार्थः मेघशब्दार्थः समानः तथापि विशेष्यम् उत्तरपदम् भवति इत्यतः अयमपि कर्मधारयः तत्पुरुषप्रभेदः एवम् द्विगुसमासस्य एकम् उदाहरणम् सप्त ऋषयः सप्तर्षयः इत्यस्ति द्विगुसमासस्य वस्तुतः अत्र समासः कः इति किञ्चित् क्लेशः अस्ति सङ्ख्यापूर्वपदस्य समासे तथापि सप्तर्षयः वदन्ति इत्युक्ते ऋषयः एव वदन्ति इति जानीमः अतः एतादृशसमासेषु तत्पुरुषसमासे सामान्यतः उत्तरपदार्थस्य प्राधान्यम् भवति प्रायेण अन्यपदार्थप्रधानः बहुव्रीहिः चतुर्थः पीतम् अम्बरम् यस्य सः पीताम्बरः अत्र पीतम् पीतवर्णम् अम्बरम् वस्त्रम् पीताम्बरः रक्षति इत्युक्ते पीतवर्णः अस्मान् न रक्षति वस्त्रमपि अस्मान् न रक्षति उभयोः अन्वयः नास्ति क्रियायाम् पीत अम्बर इति पदद्वयात् अन्यः विष्णुः रक्षति अतः अन्यपदार्थप्रधानः बहुव्रीहिः यत्र समासे विद्यमानाभ्याम् पदाभ्याम् भिन्नः कश्चित् पदार्थः प्रधानः भवति, अन्यपदार्थप्रधानः बहुव्रीहिः। प्रायेण उभयपदार्थप्रधानः द्वन्द्वः पञ्चमः। रामश्च लक्ष्मणश्च, रामलक्ष्मणौ, रामलक्ष्मणौ गच्छतः इति वदामः चेत् रामः अपि गच्छति, लक्ष्मणः अपि गच्छति, उभौ अपि गच्छतः, उभयोः पदार्थयोः क्रियायाम् अन्वयः भवति, अतः उभयपदार्थप्रधानः द्वन्द्वसमासः। एवं समासस्य पञ्चप्रभेदाः दर्शिताः। सर्वत्रापि प्रायेण इत्यस्ति। प्रायेण इत्युक्ते किम्? सामान्यतः, यूजुअली इत्येव अर्थः। अतः सर्वेषु तत्पुरुषसमासेषु उत्तरपदार्थस्य प्राधान्यम् न, सर्वेषु अव्ययीभावेषु पूर्वपदार्थस्य प्राधान्यम् न, सामान्यनियमः एषः, जनरल् रूल् इति कथ्यते। प्रायः 90% 90% स्यात्, किन्तु अपवादाः अपि सन्ति इति स्मर्तव्यम्। अपि च एतत् लक्षणम्, पूर्वपदार्थप्रधानः उत्तरपदार्थप्रधानः इत्यादि यत् कथ्यते, तत् पाणिनेः लक्षणम् न। सामान्यतः महाभाष्ये अस्ति, तदाश्रित्य अन्यैः वैयाकरणैः उच्यते, किन्तु पाणिनिना एवं व्यवस्था न कृता। तर्हि पाणिनेः व्यवस्था कथं भवति समासेषु इत्यपि ज्ञातव्यम्। एते एव पञ्च समासभेदाः पाणिनिना अपि उक्ताः, किन्तु तत्र अष्टाध्याय्यां समासविधानं कथं भवति इति पश्यामः चेत् द्वितीयाध्यायस्य प्रथमद्वितीयपादयोः समासविधानम् अस्ति। सर्वेऽपि समासाः अत्रैव कथ्यन्ते पाणिनिना। तत्र द्वितीयाध्यायस्य आदौ पीठिका अस्ति, समर्थः पदविधिः सुभामन्त्रिते पराङ्गवत्वरे प्राक्कडारात् समासः, इतः परं समासान् वदामि इति पाणिनिः कथयति। त्रीणि सूत्राणि सन्ति। अनन्तरम् एकमेव सूत्रमस्ति, केवलसमासः एकेन सूत्रेण उच्यते। ततः परं चत्वारः अधिकाराः सन्ति। अधिकारः नाम कः इति ज्ञातः स्यात्। यथा वयं शीर्षकं हेडिङ्ग् इति वदामः, तथा पाणिनीयसूत्रेषु अधिकारः भवति। बहुषु सूत्रेषु यस्य प्रसङ्गः भवति सः अधिकारः इति कथ्यते। प्राधान्येन समासप्रकरणे चत्वारः अधिकाराः सन्ति। पाणिनिः किं कथयति? अव्ययीभावः इति सूत्रम्, द्वितीयाध्यायस्य प्रथमपादे पञ्चमं सूत्रम्। इतः परम् अव्ययीभावसमासः, यद्यदुच्यते तत्र 17 सूत्राणि सन्ति, तैः सूत्रैः यद्यदुच्यते तत्सर्वमपि अव्ययीभावः इत्यर्थः। ततः 20 सूत्रमस्ति तत्पुरुषः इति। सो हेडिङ्ग्, पाणिनिः किं करोति? केवलं हेडिङ्ग् स्थापयति, इतः परम् अव्ययीभावः, इतः परं तत्पुरुषः। अव्ययीभावः इत्युक्ते किम् इति पाणिनिना नोच्यते, तत्पुरुषः नाम कः इति नोच्यते। केवलं सः संज्ञां ददाति, यथा वृद्धिरादैच्, आ ऐ औ एतेषां वर्णानां वृद्धिः इति संज्ञा। किमर्थं तेषां वृद्धिः इत्येव संज्ञा? किमर्थम् एतेषां गुणः इति न दातव्यम् इति न प्रष्टव्यम्। संज्ञा इत्युक्ते यदृच्छा, यदृच्छाशब्दाः इत्यपि उच्यन्ते। तेषाम् इच्छानुगुणं भवति इति तात्पर्यम्। अतः पाणिनिना अत्र समासे अपि समासप्रभेदाः संज्ञात्वेनैव दीयन्ते। एते अव्ययीभावसमासाः, एते तत्पुरुषसमासाः, एते बहुव्रीहिसमासाः, एते द्वन्द्वसमासाः इति। तत्र सामान्यतः अव्ययीभावे पूर्वपदार्थस्य प्राधान्यं दृश्यते, तत्पुरुषे उत्तरपदार्थस्य, बहुव्रीहौ अन्यपदार्थस्य, द्वन्द्वे च उभयोः इति अनन्तरं वैयाकरणैः उच्यते न तु साक्षात् पाणिनिना। एवं सप्तदशसूत्रैः अव्ययीभावसमासः, ततः तत्पुरुषः त्रिसप्ततिः सूत्राणि। तत्पुरुषः एव बृहत् अधिकारः समासेषु। सो द्वितीयाध्याये प्रथमपादे द्वाविंशसूत्रादारभ्य पादस्य समाप्तिपर्यन्तम्, पुनः द्वितीयपादे आदौ द्वाविंशतिः सूत्राणि, एवं तत्पुरुषसमासः त्रिसप्ततिभिः सूत्रैः उच्यते, ततः षड्भिः सूत्रैः बहुव्रीहिः, अन्ते एकेन सूत्रेण द्वन्द्वः इति अष्टाध्याय्याः व्यवस्था। अत एव अव्ययीभावात् पूर्वम् अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः इति विशेषसंज्ञाः दीयन्ते। विशेषसंज्ञा विनिर्मुक्तः केवलसमासः। विशेषसंज्ञातः पूर्वमेव एकं सूत्रमस्ति, तेन सूत्रेण यत्र वयं समासं कुर्मः सः समासः केवलसमासः इति कथ्यते। केऽपि सन्देहाः सन्ति वा एतावता? एनि क्वश्चन्? प्रष्टुमर्हन्ति। अग्रे गच्छामः। तत्र प्रथमं सूत्रमस्ति द्वितीयाध्याये प्रथमाध्याये प्रथमम् इदं सूत्रम्, अतः पीठिकाभागे अस्ति। 211-213 त्रीणि सूत्राणि पीठिकारूपेण उच्यन्ते। तत्र प्रथमं सूत्रमस्ति समर्थः पदविधिः। यदा किमपि सूत्रं वयं पश्यामः तत्र प्रथमः सूत्रस्य अवगमने प्रथमतः किं कर्तव्यं? पदच्छेदः, सूत्रे कानि कानि पदानि सन्ति इति पदविभागः। अस्मिन् सूत्रे पदद्वयमस्ति, समर्थः इति एकं पदं, पदविधिः इति अपरं पदम्। उभयमपि प्रथमाविभक्तौ एकवचनान्तम्। अत्र कंसेषु या संख्या दीयते सा विभक्तिं वचनं च सूचयति। समर्थः इति प्रथमाविभक्तौ एकवचनान्तम्, पदविधिः इत्यपि प्रथमाविभक्तौ एकवचनान्तम्। इदं च परिभाषासूत्रम् इति कथ्यते। सूत्राणि कति विधानि कोऽपि वक्तुं शक्नोति वा? सूत्रं कतिविधं भवति? षड्विधानि सूत्राणि कानि? वदतु भगिनि, स्वयम् अन्म्यूट् कृत्वा वदन्तु ते वक्तुमिच्छन्ति ते। अतिदेशः अधिकारश्च, षड्विधं सूत्रमुच्यते। संज्ञा, परिभाषा, विधिः, नियमः, अतिदेशः, अधिकारः इति षड् विधानि सूत्राणि भवन्ति। संज्ञासूत्रैः संज्ञा उच्यते, परिभाषासूत्रैः नियमः कथ्यते सूत्रार्थानाम् अवगमने अथवा कार्यस्य करणे कथं प्रवर्तनीयम् इति नियमाः उच्यन्ते। विधिसूत्रैः साक्षाद् विधिः, किं कर्तव्यम् इति उच्यते। नियमसूत्रैः विधेः नियमः क्रियते। अतिदेशसूत्रैः अन्यस्य धर्मस्य आरोपः क्रियते। अधिकारसूत्रैः विषयः उच्यते, तस्य सूत्रस्य कः विषयः इति। इदं परिभाषासूत्रम् नियमं कथयति। कः सूत्रार्थः? पदसम्बन्धी यो विधिः सः समर्थाश्रितो बोध्यः इति सूत्रस्य अर्थः। पदसम्बन्धीयो विधिः सः समर्थाश्रितो बोध्यः। सामर्थ्यं किं वदति? सूत्रार्थस्य कः अर्थः? पदसम्बन्धी विधिः, यत्र वयं पदानि उद्दिश्य विधिं कुर्मः। यथा समासः किं कुर्मः? पदद्वयमस्ति, पदद्वयं योजयित्वा एकं पदं कुर्मः। अयं पदसम्बन्धी विधिः। सन्धिः पदसम्बन्धी विधिः न, किल? यत्र वर्णद्वयमेव अस्ति तत्रापि वयं सन्धिं कर्तुं शक्नुमः, अतः सन्धिः पदसम्बन्धी विधिः न। विभक्तिः, यदा विभक्तिप्रत्ययं कुर्मः, कः अपि प्रातिपदिकात् प्रत्ययः क्रियते, सः अपि पदसम्बन्धी विधिः न। समासः पदविधिः, इत्युक्ते पदं स्वीकृत्य वयं पदस्य किमपि कार्यं कुर्मः चेत् सः पदविधिः। पदविधिः पदसम्बन्धी विधिः, सः कीदृशः भवति? समर्थाश्रितः बोध्यः, सामर्थ्यम् आश्रित्य प्रवर्तते। अर्थात् यत्र सामर्थ्यमस्ति तत्रैव पदविधिः प्रवर्तते इत्यर्थः। सामर्थ्यं नाम किम्? सामर्थ्यम् इत्युक्ते परस्पर अन्वययोग्यता। इदानीम् एकं पदम् अस्ति तस्य पृथगर्थः भवति, अन्यत् पदमस्ति तस्य पृथगर्थः भवति, उभयोः परस्पर अन्वयस्य योग्यता अस्ति वा न वा। तर्कशास्त्रे पठितं स्यात् आकाङ्क्षा योग्यता सन्निधिः इत्युच्यते। तत्र योग्यता भिन्ना, सा योग्यता इयं न, तत्र आकाङ्क्षा इति या कथ्यते। राज्ञः इत्युक्ते राज्ञः किम् इति प्रश्नः अस्ति। पुस्तकम् इत्युक्ते कस्य पुस्तकम् इति आकाङ्क्षा, यदा आकाङ्क्षा अस्ति तत्र परस्पर अन्वयः भवति। सो परस्पर अन्वययोग्यता एव सामर्थ्यम् इति कथ्यते। तत्र सामर्थ्यं द्विविधं भवति, व्यपेक्षा सामर्थ्यम्, एकार्थीभावसामर्थ्यम् इति सामर्थ्यं द्विविधं भवति। वाक्ये पदानां परस्पर अन्वयः भवति किल, तस्य व्यपेक्षासामर्थ्यम् इति नाम। यत्र तु द्वे पदे मिलित्वा एकम् अर्थं बोधयन्ति यथा समासे, तत्सामर्थ्यम् एकार्थीभावसामर्थ्यम् इति कथ्यते। एतयोः विषये पुनः अग्रे कदाचित् वक्ष्यामि, यतोहि अधुना एव पूर्णतः एतयोः अवगमनं किञ्चित् क्लेशाय, किन्तु एतावत्तु स्मर्तव्यम्। सामर्थ्यं नाम किम्? परस्पर अन्वययोग्यता, द्वे पदे स्तः परस्परम् अन्वयस्य योग्यता अस्ति चेत् सामर्थ्यम् अस्ति। तत् सामर्थ्यं वाक्ये अपि अपेक्ष्यते। वाक्ये सामर्थ्यं नास्ति चेत् तद् वाक्यं न भवति। गौरश्वः पुरुषो हस्ति इति न वाक्यं, किमर्थम्? परस्पर अन्वयः नास्ति, सामर्थ्यं नास्ति। तादृशं सामर्थ्यं व्यपेक्षा इति उच्यते। द्वयोः पदयोः मेलनेन एकः अर्थः यदा बोध्यते तादृश अन्वययोग्यता भवति चेत् एकार्थीभावसामर्थ्यम् इति कथ्यते। अतः यदि समासः कर्तव्यः तत्र एकार्थीभावसामर्थ्यम् अपेक्ष्यते। एकार्थीभावसामर्थ्यं नास्ति चेत् समासः न भवति। एकम् उदाहरणं पश्यामः, स्टाण्डर्ड् उदाहरणम् इति कथ्यते। भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति इति वाक्यम्। राज्ञः दर्शनं भवति, भवति इति सत्सप्तमी प्रयोगः, यदा राज्ञः दर्शनं जातम्। सो राज्ञः दर्शनं भवति, चोरस्य पुत्रः धावति। यदा सः चोरस्य पुत्रः अस्ति, सः यदा राजानं पश्यति झटिति धावति इति वाक्यस्य अर्थः। अत्र राज्ञः पुत्रः इत्यस्ति। वयं जानीमः राज्ञः पुत्रः राजपुत्रः। तर्हि भवति दर्शनं राजपुत्रः चोरस्य धावति इति वाक्यं कर्तुं शक्नुमः वा? तेन अर्थबोधः भवति वा न भवति किमर्थं न भवति राज्ञः इति पदं दर्शनेन अन्वेति राज्ञः दर्शनम् राजसम्बन्धी दर्शनम् इति राजपदार्थस्य दर्शने अन्वयः पुत्रः कस्य पुत्रः चोरस्य पुत्रः अतः चोरसम्बन्धी पुत्रः पुत्रशब्दस्य चोरपदार्थेन अन्वयः न तु राजपदार्थेन राज्ञः पुत्रः एतयोः परस्पर अन्वययोग्यता नास्ति यतोहि राजा पुत्रेण न सम्बद्धः पुत्रः राज्ञा न सम्बद्धः परस्पर योग्यता नास्ति अतः अत्र राजपुत्रः इति समासः न भवति अवगतं वा सामर्थ्यम् सामर्थ्यम् नाम परस्पर अन्वययोग्यता सामर्थ्यम् अस्ति चेदेव समासः भवति इति अनेन सूत्रेण उच्यते समर्थः पदविधिः इति सूत्रम् पदसम्बन्धी यो विधिः यथा राज्ञः पुत्रः इति पदसम्बन्धी समासविधिः समर्थाश्रितः बोध्यः सामर्थ्यम् आश्रित्य प्रवर्तते अत्र सामर्थ्यम् नास्ति इत्यतः समासः न भवति स्पष्टम् अस्तु तत्र इदं द्वितीयाध्याये प्रथमाध्याये प्रथमं सूत्रं समर्थः पदविधिः द्वितीयं सूत्रमस्ति सुभामन्त्रिते पराङ्गवत् स्वरे इति सः स्वरसम्बद्धः स्वरान् जानीमः उदात्तः अनुदात्तः स्वरितः इति त्रयः स्वराः वैदिकप्रयोगेषु विशिष्य तेषां प्रयोजनं भवति लोके प्रयोजनं नास्ति इत्यतः तत्सूत्रम् अत्र न स्वीक्रियते तृतीयं सूत्रमस्ति प्राक्कडारात् समासः इति समासप्रकरणे अष्टाध्याय्यां तृतीयं सूत्रम् प्राक् कडारात् समासः इति पदत्रयम् अत्र अस्ति कडारात् इति पञ्चमी विभक्तौ एकवचनान्तम् प्राक् इति पदमस्ति अस्ति सकारान्तः अव्ययमपि अस्ति समासः इति प्रथमा विभक्तौ एकवचनम् प्राक् कडारात् कडारात् प्राक् समासः प्राक् इत्यस्य पूर्वम् इत्यर्थः इदम् अधिकारसूत्रम् इतः आरभ्य द्वितीयाध्यायस्य द्वितीयपादे अष्टात्रिंशत्तमं सूत्रमस्ति तत्पर्यन्तमपि अयम् अधिकारः कः अधिकारः समासः इति अधिकारः अर्थात् इतः समासः इति हेडिङ्ग् कृतं पाणिनिना इत आरभ्य तत्पर्यन्तमपि समासाः उच्यन्ते किं पर्यन्तम् इति चेत् प्राक् कडारात् कडाराः कर्मधारये इत्यतः प्राक् समासः इति अधिक्रियते कडाराः कर्मधारये इति द्वितीयाध्यायस्य द्वितीयपादे अन्तिमं सूत्रमस्ति ततः प्राक् तत्पर्यन्तम् इत्यर्थः अभिविधिः तदपि योजयित्वा तत्पर्यन्तम् समासः इत्यधिकारः इत आरभ्य कडाराः कर्मधारये इत्येतत् पर्यन्तम् यद्यत् कथ्यते तत्सर्वमपि समासः इत्यर्थः 213 इत आरभ्य 238 क्षम्यताम् अत्र टङ्कणदोषः अस्ति 2138 न 22 द्वितीयाध्यायस्य द्वितीयपादे अष्टात्रिंशत्तमसूत्रपर्यन्तम् समासाधिकारः इतः परम् वयम् समासान् कथयामः इत्येव अर्थः प्राक्कडारात् समासः कडाराः कर्मधारये इत्यतः प्राक् समासः इति अधिक्रियते अधिकारः संज्ञाधिकारः समासः इति संज्ञा सर्वेषु सूत्रेषु अधिक्रियते इत्यर्थः. अद्य वयं किं किं ज्ञातवन्तः? समासः नाम कः? समसनम् समासः, समसनम् अनेकस्य पदस्य एकपदीभवनम् समासः. समासस्य कति प्रभेदाः? मुख्यतः चत्वारः प्रभेदाः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः इति. केवलसमासः विशिष्टसंज्ञा विनिर्मुक्तः केवलसमासः इत्येवम् आहत्य पञ्च समासप्रभेदाः भवन्ति. तेषाम् प्राधान्यम् कथम् इति ज्ञातवन्तः. समासे प्राधान्यनिर्णयः कथम् भवति? गुणस्य क्रियायाः वा अन्वयम् कुर्मः, यस्य पदार्थस्य गुणेन क्रियया वा अन्वयः भवति सः प्रधानः. तत्र सामान्यनियमः पूर्वपदार्थप्रधानः अव्ययीभावः, उत्तरपदार्थप्रधानः तत्पुरुषः, अन्यपदार्थप्रधानः बहुव्रीहिः, उभयपदार्थप्रधानः द्वन्द्वः सर्वत्र प्रायेण सामान्यनियमः एषः. तत्र समर्थः पदविधिः इति सूत्रम् दृष्टम्. पदसम्बन्धीयो विधिः सः समर्थाश्रितो बोध्यः. यत्र सामर्थ्यम् भवति तत्रैव समासः भवति. सामर्थ्यम् नाम किम्? परस्पर अन्वययोग्यता. सामर्थ्यम् सामर्थ्ये सत्येव समासः भवति. प्राक् कडारात् समासः. कडाराः कर्मधारये इत्यतः प्राक् समासः इति अधिक्रियते. इतः आरभ्य कडाराः कर्मधारये इत्येतत् पर्यन्तम् समासाधिकारः इत्येतावदधीतम्. प्रश्नाः सन्ति वा? अस्ति चेत् भवद्भिः प्रष्टव्यम्, नो चेत् अग्रे मया पृच्छ्यन्ते, तेषाम् उत्तरम् दातव्यम्.
भगिनी, द्विगुसमासः नाट् सो क्लियर् टु मी.
द्विगुसमासः तत्पुरुषसमासस्यैव प्रभेदः. वस्तुतः कर्मधारयस्य अन्तर्भेदः द्विगुः. अग्रे यदा द्विगुसमासं पठामः तदा तस्य नियमः ज्ञायते. किन्तु तत्रापि सामान्यतः उत्तरपदार्थप्राधान्यं भवति. सः तत्पुरुषः इत्यस्य अन्तः एव सङ्ख्यापूर्वो द्विगुः इति सूत्रेण द्विगुसमासः उच्यते.
धन्यवादः.
केवलसमासे प्राधान्यं नास्ति वा इति? नास्ति. इत्युक्ते वस्तुतः केवलसमासः एक्सेप्शनल् केसस् एव. सामान्यतः समासाः पाणिनिना ये चत्वारः प्रभेदाः उच्यन्ते तत्रैव भवन्ति. यत्र तु इर्रेग्युलर् समासः इति उच्यते तैः समासः न सिध्यति, किन्तु कविभिः शिष्टैः वा प्रयुक्तम्, तत्र व्याख्याकर्तृभिः केवलसमासः इति उच्यते. तदपि अग्रिमवर्गे जानीमः. अतः केवलसमासे अस्यैव प्राधान्यम् इति वक्तुं न शक्यते. केवलसमासः यत्र नियमः नास्ति इत्येव अर्थः. समस्तपदमस्ति किन्तु तत्र विशिष्य कोऽपि नियमः नास्ति इत्येव. सूत्राणां पूर्वं संख्या किं सूचयति इति? तत् 907-908 इति लघुसिद्धान्तकौमुद्याः सूत्रसंख्या. अग्रे कंसेषु यद्भवति तत्तु अष्टाध्याय्याः संख्या. एषा तु लघुसिद्धान्तकौमुद्याः संख्या. तस्य प्राधान्यं नास्ति, ज्ञातव्यमिति नास्ति, किन्तु यदि पुस्तके अन्वेष्टुमिच्छन्ति तर्हि एषा संख्या भवति. अस्तु, अत्र केचन प्रश्नाः भवन्ति. एकवारं पठित्वा गृहे विलिख्य अथवा दृष्ट्वा अभ्यासं कुर्वन्तु. अग्रिमवर्गस्य आदौ एतेषां चर्चां कृत्वा अग्रे गच्छामः. इदानीमेव वदामि, व्याकरणवर्गः श्रमः अपेक्षते. शास्त्रवर्गः शास्त्राध्ययने श्रमं विना किमपि न सिद्ध्यति. केवलं पाठस्य श्रवणेनापि किमपि प्रयोजनं नास्ति. यदुक्तं तस्य गृहं गत्वा पुनः पठनीयं, ज्ञातव्यं, प्रश्नानाम् उत्तरं दातव्यं, तदैव किञ्चिद्वा प्रयोजनं भवति. सर्वमपि एकवारमेव अवगम्यते इति नास्ति. शास्त्रे कदापि एकवारं श्रवणेन अध्ययनेन सर्वेषाम् अंशानां स्पष्टता न भवति. तथापि यावत् प्रयत्नः क्रियते तावत् फलं लभ्यते. अतः प्रश्नाः सन्ति, मौखिकं वा लेखनं वा कथञ्चित् अभ्यासं कुर्वन्तु. अग्रिमवर्गे एतेषां प्रश्नानाम् उत्तरं दातव्यम् इत्येव तात्पर्यम्. समासः नाम कः, समासः कतिविधः, समासप्रभेदाः के, समासे प्राधान्यनिर्णयः कथं क्रियते, कथम् इदमेव प्रधानम् इति ज्ञायते, सोदाहरणं वक्तव्यम्, एतादृशानां प्रश्नानाम् उदाहरणसहितमेव उत्तरं, वर्गे वा भवतु परीक्षायां वा भवतु सोदाहरणम् उत्तरं दातव्यम्. समर्थः पदविधिः, अस्य सूत्रस्य कः अर्थः, सोदाहरणं विवरणीयम् इति. एतत्तु विवरण, दीस् आर् डिस्क्रिप्टिव् क्वश्चन्. अवगमनम् अभूद्वा इत्यत्र केचन प्रश्नाः. गण ईशः गणेशः, अत्र समासः वा सन्धिः वा इति प्रश्नः. विष्णुभक्तः, अत्र समासे विष्णोः प्राधान्यम्, ऋतं वा अनृतं वा, ट्रू आर् फाल्स्. तत्पुरुषसमासः सर्वदा उत्तरपदार्थप्रधानः. द्वन्द्वसमासे सामान्यतः कस्य पदार्थस्य प्राधान्यं भवति. पाणिनिना पदार्थस्य प्राधान्यम् आश्रित्य समासविधानं कृतम्. पाणिनिः, अस्य प्रश्नस्य अर्थः एवं, पाणिनिः यदा समासान् दत्तवान् अष्टाध्याय्यां तदा प्राधान्यम् आश्रित्य कृतवान् वा. अर्थात् यः यः पूर्वपदार्थप्रधानः सः अव्ययीभावः, यः यः उत्तरपदार्थप्रधानः सः तत्पुरुषः इति कृतं वा इति प्रश्नः. ऋतं वा अनृतं वा इति. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. समाप्तिं कुर्मः. अत्र ड्रैव् मध्ये एतत् प्रेजेन्टेशन् वर्गस्य मुद्रणम् उभयं स्थापयित्वा शेर् करोमि. तत्र दृष्ट्वा प्रश्नान् पश्यन्तु, टिप्पणीः अपि द्रष्टुमर्हन्ति. प्रश्नाः सन्ति चेत् तत्र गणे पृच्छन्तु, वाट्सप् गणे. वर्गः सामान्यतः बुध गुरुवासरयोः प्रातः 10:30 to 11:30, कदाचित् द्वादशवादनपर्यन्तं भवेत् यदि अधिकम् अस्ति, सामान्यतः अस्मिन् दिने. किन्तु आनुकूल्यानुगुणं कदाचित् परिवर्तनमपि भवेत्. सर्वमपि अहं वाट्सप् गणे सूचयिष्यामि.
धन्यवादः भगिनी.